नमस्सर्वेभ्यः. अद्य प्रौढमनोरमायाः हल्सन्धिप्रकरणे चतुर्थः पाठः. आगस्ट् मासस्य नवमः दिनाङ्कः. एनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. ध्यायं ध्यायं परं ब्रह्मस्मारं स्मारं गुरोर्गिरः. सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम्. हल्सन्धिप्रकरणे गतवर्गे त्रीणि सूत्राणि अधीतानि. गमो ह्रस्वादचि गमुन्नित्यम् मुमुडागम विधायकं सूत्रम्. तत्र गमुट् इत्यत्र टित्वमस्ति. गम् इत्यस्मात् प्रत्याहारात् टित्वं क्रियते. किन्तु प्रत्याहारात् टित्वे तत्र समुदायः. प्रत्याहारः नाम गणन इति त्रयाणां वर्णानां समुदायः. समुदायस्य टित्वम् अप्रयोजकं. तेन किमपि साधयितुं न शक्नुमः. अतः संज्ञायां कृतं टित्वं सामर्थ्यात् संज्ञभिः सम्बध्यते. व्यर्थं स्यात् तस्य सामर्थ्यात् संज्ञभिः पृथक् सम्बध्यते. अत एव मुट् णुट् नुट् इति त्रयः आगमाः. सर्वेपि टितः आद्यवयवाः इति निश्चीयते. ततश्च नित्यम् इत्यस्ति. गमोहस्वादचि गमुन् नित्यम्. नित्यग्रहणं किमर्थम् इति कृष्वा स्पष्टार्थमेव. यतोहि पूर्वमपि कश्चन विकल्पः अस्ति, परत्रापि विकल्पः अस्ति. उभयोः विकल्पयोः मध्ये स्थितत्वात् तत् नित्यमेव इति अवगम्यते. So it can be inferred that anything between two vikalpas is nitya. Otherwise, it would have been included under one of the vikalpas. Ataha nitya grahanam spashtartham eva namashyakam iti dikshitanam matam. Namut ityatra titvam titvat adyavayavaha. Namantam yatpadam asvat parahayongam tadantam yatpadam tasmat parasya ataha agamaha iti nishchiyate. किमर्थं पराधित्वम्? यतोहि यद्यपि सः क्षम्यतां नमः आद्यवयवः नमः नमुट् आगमः. सो इट् इस् इट् कम्स् टु द बिगिनिङ्ग् आफ् द नम् लेटर्. तेन किं प्रयोजनम् इति पृष्टे कुर्वन्नास्ते इत्यत्र णत्वनिषेधः प्रयोजनं. कुर्वन् इत्यस्ति, तत्र नकारः पदान्ते अस्ति. रेफं निमित्तीकृत्य नकारस्य णत्वं कुतो न भवति इति पृष्टे परान्तस्य इति निषेधः. पदान्ते विद्यमानस्य नकारस्य णत्वं न भवति इति निश्चीयते. क्षम्यताम् वाट् डस् हि से एक्साक्ट्लि. Somebody remembers the exact meaning of Namo Hrasva Dachi Nangamun Nityam given in the Siddhanta Kaumudi? I think it is. I think I didn't include it in my this. So what I told first was correct. So ஹ்ரஸ்வாத் பரஹ யஹங்கம் ததந்தம் யத் பதம் தஸ்மாத் பரஸ்ய அசஹ நித்யம் கமுடாகம. சோ அசஹ ஏவ கமுடாகம விதானம் சத்யம். சோ ரைட் குர்வன் ஆஸ்தே இது ஸ்திதே அச்சா ஆகம நமுட் ஆகம. முத்துலக்ஷ்மி.
Yeah, I was trying to tell you the
thank you
Vritti for
So achaha eva namudagamaha. So that is why when we have kurvan ityata nakaraha itopi padante eva asti padantatvate natunishesha yadi purvasya antaha arthat namaha namuk iti kittagamaha syat if it were to be added to kurvan that is the nam itself then one of the nakaras is not padanta only one nakara is padanta whereas the other is not padanta so not being padanta satra natvam syat natve sati ishtutvena aparasyapi nakarasyapi natvam bhavati iti phalati ataha tadeva paraditye prayojanam etatcha yathodesha pakshe eva yataha karyakala pakshe bahirangatva dasiddhatvam iti ashriyate yathodesha pakshe paraditvasya prayojanam bhavati kurvannaste ityatra natva nishedhah ततः परमदण्डिनौ इत्यत्र नुटः आपत्तिः क्रियते परमश्चासौ दण्डी च इति समासे कृते परम औ दण्डिन् औ इत्यस्ति परम दण्डिन् इति समस्तपदं तस्मात् पुनः औ प्रत्ययः क्रियते इदानीं समासे कृते அவயவசிய சுபஹ லுக் பவதி சுபோதாது பிரதிபதிகயோ இத்தனேன அதஹ பரமா ஔ தண்டின் ஔ இத்யத்ர உபயோ ஔ பிரத்யயோ லுகி பரம தண்டின் இதி சமஸ்த பதே புனஹ சமஸ்தாத் சுபுத்பத்தி இதி சித்தாந்த தத்ர லுப்தயோ சுப்ரத்யயோ பிரத்யய லட்சணேன பரம இத்யபி பதம் தண்டின் இத்யபி பதம் இதி யதி ஸ்வீக்ரியதே தர்ஹி தண்டின் இதி பிரத்யலட்சணேன பதம் கமன் ஹஸ்வாத் பரஹ யஹங்கம் ததந்தம் யத் பதம் தஸ்மாத் பரஸ்ய அசஹ இத்தனேன ஓகாரஸ்ய அத்ராபி நமுடாகம பவதி வா இதி பிரஷ்னஹ ந பவதி இதி உத்தரம் யதஹ பிரத்யலட்சணேன பதத்வம் சமாசே உத்தரபதத்வே ச அபதாதி விதௌ உத்தரபதத்வே உத்தரபதஸ்ய பதத்வம் ந பவதி பதத்வம் நிஷித்யதே பிரத்யலட்சணேன பதத்வம் ந பவதி பதாதி விதௌ ஏவ பவதி தத்வின்ன ஸ்தலே உத்தரபதஸ்ய பதத்வம் நாஸ்தி இதி சித்தாந்தஹ. So there are many cases where we have this. Always உத்தரபதா, the பூர்வபத is always considered a பதா by பிரத்யலக்ஷணா, whereas the உத்தரபத is not considered a பதா. So because of that, பரமதண்டினௌ இத்யத்ர நுடாகமஹ ந பவதி. ததஹ அத்ரானுநாசிகஃ பூர்வஸ்ய து வா. அத்ர நாம ருப்ரகரணே ரோஹ பூர்வஸ்ய அனுநாசிகஹ. ஓகே, அத்ர அயம் அதிகார அதிகாரஹ வா விதிர்வா இதி ப்ரஷ்னஹ. உபயத்ர கேஸ் தோஷாஹ ப்ரதர்ஷ்யந்தே. அதிகார பக்ஷே அத்ர கிரஹணம் நாபேக்ஷ்யதே. அனுநாசிக பூர்வத்ரிஸ்ய து வா இத்யுக்தே தத்அக்ரே ருப்ரகரணே ஏவ அதிகாரஹ, அத்ர இதி ந வக்தவ்யம். யதி விதிபக்ஷஹ தர்ஹி அத்ர கிரஹணம் சார்த்தகம், யதோஹி ருப்ரகரணே ஏவ அஸ்ய சூத்ரஸ்ய ப்ரவ்ருத்திஹ இதி தர்ஷயிதும் அத்ர கிரஹணம் அபேக்ஷிதம், கிந்து து கிரஹணம் நாபேக்ஷிதம். பூர்வஸ்ய து வா இத்யஸ்தி, து கிரஹணேன கிம் ஞாயதே, விசேஷஹ பரஸ்ய நித்யம் ருத்வம், பூர்வஸ்ய து நித்ய விகல்பேன அனுநாசிகஹ இதி விசேஷ தர்ஷனாய து கிரஹணம். அதிகார பக்ஷே அபேக்ஷிதம், யதோஹி பிரதிசூத்ரம் இத்தோக்ரே பிரதிசூத்திரம் ருத்வம் விதீயதே, தேன சஹ அதிகாரேண அனுநாசிகஹ அபி விதீயதே, தத்ர பரஸ்ய நித்யம் ருத்வம் நித்யம், பூர்வஸ்ய து விகல்பேன அனுநாசிகஹ இதி விசேஷ பிரதர்ஷனார்த்தம் அதிகார பக்ஷே து கிரஹணம் சார்த்தகம். விதிபக்ஷே து அனுநாசிக ஏவ விதீயதே அனேன சூத்ரேண, இதம் சூத்ரமேவ விதி சூத்ரம், அனேன சூத்ரேண அனுநாசிக ஏவ விதீயதே, ததா சதி து இதி நாபேக்ஷிதம். யத்ர த்வயோஹ விதானம் யுகபதஸ்தி, ऋत्वस्य तथा अनुनासिकस्य तत्र विशेषदर्शनार्थं तु ग्रहणम् अपेक्षितम्। एतदेव स्वतन्त्रं विधिसूत्रम् इति चेत् अत्र ऋत्वविधानं नास्ति, केवलम् अनुनासिकविधानं, तथा सति तु ग्रहणं नापेक्ष्यते। अधिकारपक्षे अत्र ग्रहणं नापेक्ष्यते, विधिपक्षे तु ग्रहणं नापेक्ष्यते, पक्षद्वयेपि वा ग्रहणं व्यर्थम्। अधिकारः वा भवतु विधिर्वा भवतु वा इति नापेक्ष्यते। किमर्थम्? अग्रिमसूत्रमस्ति अनुनासिकात् परोनुस्वारः, यत्र अनुनासिकः नास्ति तत्र अनुस्वारागमः विधीयते। यदि अनुनासिकविधानं नित्यं तर्हि तस्य सूत्रस्य अवकाश एव नास्ति। तेन सूत्रेणैव ज्ञायते अनुनासिकः वैकल्पिकः इति। अतः वाग्रहणं तत्पक्षद्वयेपि व्यर्थम् इत्येव दीक्षितानां सिद्धान्तः। अग्रिमं सूत्रमस्ति अनुनासिकात् परोनुस्वारः। अनुनासिकात् परः इत्यस्ति। वस्तुतः अनुनासिकात् परत्र अनुस्वारागमः नास्ति। अनुनासिकं विहाय यत्र अनुनासिकः नास्ति तत्रैव अनुस्वारागमः इत्यत्र ल्यब्लोपे पञ्चमी। यथा प्रासादात् प्रेक्ष्यते इत्यत्र प्रासादम् आरुह्य प्रेक्ष्यते इत्यर्थः, तथा अत्र अनुनासिकात् परः इत्युक्ते अनुनासिकं विहाय परः अनुस्वारः इति अर्थः क्रियते। अनुनासिकात् परः इत्यत्र कस्मात् परः, यदि अनुनासिकादिति अवधिं न निर्दिशति, इट् डस् नाट् इण्डिकेट् द अवधि, इट् जस्ट् मीन्स् अनुनासिकां विहाय इत्यर्थः, तर्हि कस्मात् परः अनुस्वारागमः इति आकाङ्क्षा विद्यते। तत्र उपस्थितत्वात् योग्यत्वाच्च, यस्य अनुनासिकयोग्यता अस्ति तस्मात् परस्यैव अनुस्वारागमः विधीयते इति संसर्गः विप्रयोगः उभावपि शक्तिग्राहकौ। सो यथा अवत्स आनीयताम् इत्युक्ते वत्सरहिता गौरेव आनीयते, न तु अन्यः प्राणिविशेषः, तथा अत्रापि अनुनासिकं विहाय अनुस्वारागमे यत्र अनुनासिकस्य योग्यता अस्ति तस्मात् परस्यैव अनुस्वारागमः इति अर्थात् निश्चीयते। दिस् इस् वाट् वी डिड् लास्ट् क्लास्। नेक्स्ट् सूत्र इस् विसर्जनीयस्य सह, खरि विसर्जनीयस्य सह स्यात् इति सूत्रार्थः। खरीति एतच्च मण्डूकप्लुत्य खरवसानयोः इति सूत्रात् अनुवर्तते। खरवसानयोर्विसर्जनीयः इत्यत्र खरि अवसाने च परे रेफस्य विसर्गः विधीयते। ततः एकदेशे एव खरि इत्येतदेव मण्डूकप्लुत्य, यतोहि मध्ये विद्यमानेषु बहुषु सूत्रेषु तस्य अनुवृत्तिः नास्ति, तथापि अर्थतः अत्र अनुवृत्तिः स्वीक्रियते। ततः अग्रे वस्तुतः एतत्तु संस्कर्ता इति प्रकरणं, संस्कर्ता इत्यत्र कस्य कस्य द्वित्वं भवति इत्यादि। तत्र उच्यते कौमुद्याम् अनुस्वारविसर्गजिह्वामूलीय उपध्वानीययमानाम्, अर्थात् ये ये अयोगवाः माहेश्वरसूत्रेषु न पठिताः तेषाम् अकारोपरि शर्षुचपाठस्य उपसङ्ख्यातत्वेन, तेषाम् अच्त्वमपि अङ्गीक्रियते, हल्त्वमपि अङ्गीक्रियते। अ इ उन् इत्यत्र अकारानन्तरं तेषां पाठः अङ्गीकृतः, शर्षु शर्षसर् इत्यत्रापि तेषां पाठः अङ्गीकृतः। अनुस्वारविसर्गजिह्वामूलीय उपध्वनीययमानाम् अकारोपरि शर्षु च पाठस्य उपसङ्ख्यातत्वेन अनुस्वारस्यापि अच्त्वात्, अतः परस्य यरः इति उच्यते, तत्र अनुस्वारस्यापि अच्त्वम् इति अनेन उच्यते। ननु अनुस्वारस्य अनच्त्वात् ततः परस्य द्वित्वं न स्यादेव इत्यतः अनुस्वारविसर्गेत्यादि। किमर्थमिदमुच्यते? तत्र संस्कर्ता इत्यस्ति सकारः, अनुस्वारात् परः सकारः, तस्य द्वित्वे कृते त्रिसकारकं रूपं साध्यते संस्कर्ता इत्यत्र। అనుస్వారస్య అనచ్వాత్ ఎది అనుస్వారః అచ్ నాస్తి తర్హి తతః పరస్య ద్విత్వం న స్యాత్ అతః అనుస్వార విసర్గస్య విసర్గేత్యాది ఏతేషాం సర్వేషాం అచ్తోపి అస్తి ఇతి ప్రదర్శయితుమేవ ఇదం వాక్యం. అకారోపరీతి తత్రాపి అచి అకారానంతరమేవ ఏతేషాం సర్వేషాం పాఠః తతః ఈ ఇకారః ఇతి యది తు ఇకారోపరి పఠ్యేరన్ అచ్ ఇత్యుక్తే యత్ర కుత్రాపి భవితుం అర్హతి అకారాద్వా ఇకారాద్వా ఉకారాద్వా. కిమర్థం అకారోపరి ఇత్యేవ విశిష్య ఉచ్యతే ఇతి చేత్ యది తు ఇకారోపరి పఠ్యేరన్ యది ఇకారానంతరం కుత్రాపి అక్షు యోగవాహనాం పాఠః తర్హి పయస్సు యశస్సు ఇత్యాదౌ ఇడః పరస్యేతి షత్వం స్యాత్. ఇన్ ప్రత్యాహారః సర్వదా పరణకారేణ అతః ఈ ఊరు అన్యే సర్వేపి అతః ఇన్ ప్రత్యాహారేణ గృహ్యంతే. యది విస అయోగవాహనాం పాఠః ఇకారానంతరం స్యాత్ తర్హి పయః సు ఇత్యస్తి విసర్గః విసర్గాత్ పరః సకారః ఏవం యశస్సు విసర్గాత్ పరః సకారః అపదాంతస్య మూర్ధన్యః ఇన్ కోః ఆదేశ ప్రత్యయః ఇన్ కవర్గాభ్యాం పరస్య సకారస్య షత్వం విధీయతే. తర్హి విసర్గః ఇన్ వర్ణః తస్మాత్ పరస్య సకారస్యాపి షత్వం స్యాత్. అత ఏవ అకారోపరి ఏవ పాఠః. అచ్ గ్రహణే గృహ్యంతే కింతు ఇచ్ గ్రహణే వా ఇన్ గ్రహణే వా ఏతేషాం గ్రహణం నాస్తి ఇత్యర్థః. అచిత్వాదితి నచ ఏవం హరిష్కర్త హరిస్మరతి ఇత్యాదౌ యణాది ప్రసంగః. హరిః కర్త ఇత్యస్తి హరి ఇత్యత్ర ఇకారః ఇకారాత్ పరః విసర్గః. విసర్గస్య అచ్త్వాత్ ఇకో యణసి ఇత్యనేన స్యాత్ హరిం స్మరతి. అత్రాపి ఇకారాత్ పరః అనుస్వారః అనుస్వారే పరే ఇకారస్య యణాదేశ స్యాత్ ఇతి ప్రశ్నః. నచ ఏవం హరిః కర్త హరిం స్మరతి ఇత్యాదౌ యణాది ప్రసంగః. కిమర్థం త్రిపాదీస్థత్వేన విసర్గాదీనాం అసిద్ధత్వాత్. హరిః ఇత్యత్ర హరిస్ ఇత్యస్తి తత్ర ససదశోరుః కర్వసానయోర్ విసర్జనీయః ఇతి విసర్గః. ఉభయమపి త్రిపాద్యాం అస్తి అతః అసిద్ధం. బోత్ ఋత్వ అండ్ విసర్గ ఆర్ అసిద్ధ ఇకార. హరిం స్మరతి ఇత్యత్ర మోనుస్వారః ఇత్యనేన అనుస్వారః సోపి త్రిపాదీస్థః అనుస్వారస్యాపి అసిద్ధత్వం. In all such cases, because of anisiddhatva, we don't have the swarasandhi happening, even when followed by anuswara or visarga. But for dvitva and other things, anuswara and visarga are treated as ach, both as ach and hal as required. Okay. Because in samskarta itself, anuswaravatam anuswarasyapi dvitve, anuswarasyapi dvitvam kriyate, katham punaha. తస్య శర్త్వాత్ శర్షుచ పాఠాత్ యర్త్వం అస్తి అతః పరస్య యరః ద్వేవాస్తః నతు అచి ఇత్యుచ్యతే. స ము స ఇత్యుక్తే అకారాత్ పరస్య యరః నామ అనుస్వారస్య ద్విత్వం స్యాత్ నతు అచి. అతః అనుస్వారస్య అచ్త్వమాశ్రిత్య సకారస్య ద్విత్వం క్రియతే. హల్త్వం అర్థాత్ యర్త్వమాశ్రిత్య తస్యాపి ద్విత్వం క్రియతే. అనుస్వారస్యాపి ద్విత్వం అనుస్వారవతాం అనుస్వారస్యాపి ద్విత్వే ద్వాదశ. అనుస్వారస్యాపి ద్విత్వే ఇతి అపిశబ్దాత్ కకారస్య. సంస్కర్త ఇత్యత్ర సకారస్య అస్తి అనుస్వారస్య ద్విత్వం కకారస్యాపి ద్విత్వం. సంస్క్ ఇత్యత్ర కకారస్యాపి ద్విత్వం క్రియతే. శరఃఖయః ఇతి సూత్రం తేన ద్విత్వం. శరః పరస్య ఖై వర్ణస్య ఇత్యనేన ककारस्यापि ద్విత్వం క్రియతే. ఏషాం అష్టాదశానాం తకారస్య ద్విత్వే వచనాంతరేణ పునర్ద్విత్వే చ ఏకతం ద్వితం త్రితం ఇతి చతుష్పంచాశత్. సంస్కర్తా ఇత్యస్తి తత్ర తకారస్య ద్విత్వం కర్తుం ఇష్యతే. అచోరహాభ్యాం ద్వే ఇత్యనేన ఆదౌ ద్విత్వం క్రియతే. అతః పరాభ్యాం రేఫహకారాభ్యాం పరస్య యరః ద్విత్వం. రేఫాత్ పరస్య తకారస్య సంస్కర్తా ఇత్యత్ర రేఫాత్ పరస్య తకారస్య అచోరహాభ్యాం ద్వే ఇత్యనేన ద్విత్వం క్రియతే. ఏషాం అష్టాదశానాం తకారస్య ద్విత్వే వచనాంతరేణ పునర్ద్విత్వే ततः यणोमयोद्वेवाच्ये इत्यपि सूत्रमस्ति. यणः परस्य मयिवर्णस्य द्वित्वं भवति इति. रेफः यण् तस्मात् परस्य मयः नाम तकारस्य पुनः द्वित्वं कर्तुं शक्यते. एकं लक्षणं सकृत् प्रवृत्तिः, लक्ष्ये लक्षणं सकृदेव प्रवर्तते इति नियमः. किन्तु अत्र एकवारं द्वित्वम् अचोरहाभ्यां द्वे इत्यनेन, द्वितीयवारं तु यणोमयो द्वे वाच्येन, अतः लक्षणान्तरेण तदेव कार्यं पुनः विधातुं शक्यम्. एकं सूत्रम् एकस्मिन् लक्ष्ये सकृदेव प्रवर्तते इति सिद्धान्तः. एकस्यैव सूत्रस्य पुनः पुनः प्रवृत्तिः कर्तुं न शक्यते, किन्तु भिन्नेन सूत्रेण तदेव कार्यं चेत् कर्तुं शक्यते. अत एव तकारस्य प्रथमतया अचोरहाभ्यां द्वे इत्यनेन द्वित्वं, पुनः यणोमयो द्वे वाच्य इत्यनेन अपि द्वित्वं, तेन एकतं द्वितं त्रितम् इति त्रीणि रूपाणि सिद्ध्यन्ति. वचनान्तरेणेति अचोरहाभ्याम् इति कृतेऽपि यणोमयः इति भवत्येव इति भावः. एनी क्वेश्चन्स्? अग्रिमं सूत्रमस्ति पुमः खय्यं परे. पुमः इत्यस्ति वस्तुतः पुंस इति शब्दः. पुमान् पुमांसौ पुमांसः इत्यत्र पुंस इति शब्दः. पुंसः संयोगान्तलोपे कृते अवशिष्टभागस्य इदमनुकरणम्. पुंस स इति वा भ्याम् इत्यादिषु वा संयोगान्तं यत् पदं स्वान्तस्य लोपः स्यात् इत्यनेन सकारस्य लोपे कृते पुम् इति भवति. तस्य अनुकरणमिदम् पुमः इत्यत्र वस्तुतः पुंसः इति भवेत्. किन्तु संयोगान्तलोपे कृते अवशिष्टभागस्य अनुकरणं कृत्वा पुम् पुमः इति उच्यते. अम्परे खयि पुं शब्दस्य रुः स्यात्. खयि खयिवर्णे परे ऋत्वं विधीयते. इति कौमुदी. व्युत्पत्तिपक्षे अप्रत्ययस्य इति षत्वपर्युदासात् कह्पयोः प्राप्तौ, अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ सम्पुङ्कानाम् इति सः. पुंस् कोकिलः इति रूपम् उच्यते. पुंस् कोकिलः इत्यस्ति. इदुदुपधस्य च अप्रत्ययस्य इति सूत्रमस्ति. तत्र किं भवति यदि एतत् नास्ति तर्हि वस्तुतः किं भवेत् इति प्रश्ने इदुदुपधस्य च अप्रत्ययस्य इत्यस्ति. प्रत्ययभिन्नस्य सकारस्य विषये उच्यते. इदुदुपधस्य इकारे उकारे इकारः उकारो वा उपधायाम् अस्ति चेत् तत्र पुंस् शब्दः उणादिप्रत्ययान्तः डुंसुम् इति प्रत्ययः क्रियते. डुंसुन् प्रत्यये कृते तस्य प्रत्ययस्य प् उंस् इत्यस्ति. पाति इति पुमान् अथवा पुनाति इति पुमान् द्वाभ्यां धातुभ्यां निष्पाद्यते. तत्र धातोः डुंसुन् इत्यत्र डित्वात् धातोः तेः लोपः. पा इति वा पु पू इति वा धातोः टेः लोपः. पु उंसुन् इत्यस्ति तथा पुंस् इति भवति. तत्र उणादयः उणादीनि अव्युत्पन्नानि प्रातिपदिकानि इति एकः पक्षः, व्युत्पन्नानि प्रातिपदिकानि इति अपरः पक्षः. सो अव्युत्पन्नानि प्रातिपदिकानि इति पक्षे किं भवति, व्युत्पत्तिपक्षे किं भवति. व्युत्पत्तिपक्षे नाम उणादीनि व्युत्पन्नानि. तत्र प्रकृतिप्रत्ययविभागः दृश्यते इति पक्षे पुंस् इत्यत्र यः सकारः सः प्रत्ययस्य सकारः. डुंसुन् इति उणादिप्रत्ययस्य सकारः. अतः अप्रत्ययस्यैव शब्दं विधीयते इत्यतः प्रत्ययस्य यः सकारः तस्मात् परस्य कह्पयोः प्राप्तौ जिह्वामूलीयः एव प्राप्नोति. ऋत्वे कृते ऋत्वस्य विसर्गे तस्मात् परस्य क्षम्यतां पुंस इत्यत्रैव तस्यैव विसर्गे कृते कह्पयोः प्राप्तौ जिह्वामूलीयस्य उपध्वनीयस्य वा प्राप्तिः अस्ति. अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ यदि उणादीनि अव्युत्पन्नानि प्रातिपदिकानि इति उच्यते तर्हि अप्रत्ययस्य इति न सम्बध्यते. अयं प्रत्ययस्य सकारः इति न. पुंस इत्येव अव्युत्पन्नं प्रातिपदिकम्. सो पुंस इस् ओन्लि कन्सिडर्ड् एस् अ प्रातिपदिक वेर् द प्रकृति एण्ड् प्रत्यय आर् नाट् रेकग्नैज्ड् सेपरेट्लि. तथा सति इदुपदस्य च अप्रत्ययस्य इत्यनेन षत्वं प्राप्नोति. उभयं निवार्य सम्पुङ्कानां सो वक्तव्यः इत्यस्ति. संस्कर्ता इत्यत्रापि तथैव अत्र अत्रापि पुंस्कोकिलः इत्यत्रापि स्वकारः विधीयते. उभयं निवार्य सकारः. पर्युदासादिति इदुदुपधस्य इति षत्वविधायके सूत्रे इति भावः. अप्रत्ययस्य इति षत्वपर्युदासाद् इत्युच्यते. षत्वस्य निषेधः, षत्वं न भवति. अप्रत्ययस्यैव षत्वम् इति कुत्र इति चेत् इदुदुपधस्य च अप्रत्ययस्य इति सूत्रे. अप्रत्ययस्य यो विसर्गः इति वैयधिकरण्येन व्याचक्षाणानां पाचां मते न इदम्. तत्र पुनः इदुदुपधस्य च अप्रत्ययस्य इत्यत्र अप्रत्ययस्य इत्यत्र द्वेधा क्रियते. अप्रत्ययस्य सस्य इत्यस्ति. यत्र प्रत्ययः एव सकारः तस्य इति वा अथवा प्रत्ययस्य अवयवः यः सकारः तस्य वा इति प्रश्नः. अप्रत्ययस्य सस्य वाट् इस् द रिलेशन्? इस् इट् अभेद? दट् इस् द सकार इट् सेल्फ् हेस् टु बि द प्रत्यय. दट् इस् द होल् प्रत्यय हेस् टु बि सकार आर् इट् केन् बि अ पार्ट् आफ् अ प्रत्यय. Say if you have say sip where ikara is gone, then su itself is the pratyaya, or say su pratyaya. So sakaraha eva pratyaya. Kintu jas ityatrava dumsun ityatrava sakaraha pratyayasya avayavaha natu purnaha pratyaya. So tatra katham iti prashnaha. Vayyadhikaranyena anvayahava samanadhikaranyena anvayahava apratyayasya yaha vihasargaha इति यदि उच्यते, अर्थात् वैयधिकरण्येन अन्वयः इति यदि अङ्गीक्रियते तदैव अत्र अप्रत्ययस्य इति षत्वप्राप्तिः. एक्स्क्यूस् मी जस्ट् फार् अ मोमेण्ट् अण्ड् वी बेक्. hello. Yeah, I'm sorry, my daughter got up, so I had to. Apratyayasya yaha visargaha. Two ways of interpreting it. Apratyayavayavaha na bhavati yaha sakaraha tasya yadi vayyadhikaranyena anvayaha. So, apratyayasya nama pratyayavayavaha na bhavati yaha sakaraha. That sakara which is not a part of a pratyaya. Iti anvayaha. Yadi samanadhikaranyena anvayaha kriyate. Pratyaya eva sakaraha. Sahana bhavati iti apratyayasya. The pratyaya itself is a sakara, or sakara is part of a pratyaya. So, prachamate, according to the older school of thought, apratyayasya havisargaha iti vayyadhikaranyena anvayaha. Nama yatra sakaraha pratyayasya avayavaha na bhavati tatra iti. Tathasati shatvaparyadasad ayamapi pratyayasya avayavaha sakaraha pums iti. Ataha shatvam na bhavati jishvamuliya upadhaniyasya praptihi iti bhavati. Apratyayasyo visargaha iti vayyadhikaranyena vyatakshananam prasammatena idam. Vakshyamana ritya samanadhikaranyena anmayetu shatvapraptau iti bodhyam. So, vakshyamana ritya atraiva agre yatra kaumudyam idam sutram vyakhyasyate idudubhadasya cha pratyasyate tatra samanadhikaranyena anvayaha iti pradarshyate. Arthat pratyayaha sakaraha bhavet. So, the pratyaya should entirely be sakara with no other letters. Yatha supratyaya anubandhe lukte s sakareva pratyaya nato anyaha kashchidasti kashchidvarnaha tatrasti. Ataha vakshyamana ritya samanadhikaranyena anvayetu. So, samanadhikaranyena anvayekate vyutpatti pakshe api, even in vyutpatti paksha, pratyaha purnataya sakaraha na ums iti pratyaha asti, na tu kevala sakaraha. Ataha vyutpatti pakshe api shatva prapti asti. Vakshyamana ritya samanadhikaranyena anvayetu shatva prapta viti bodhyam. Vyutpatti pakshe api, avyutpatti pakshe api shatvasya prapti astyeva. Shatva praptau sampungana mityanena sattvam vidhiyate. Punskokilaha, punskokilaha. Tatra sattve ruhu, pumshabdasya, sanyoantalope krite, pum mityasti, tatra rutvam kriyate. Roho, visargaha, tataha sattvam. Roho purvasya anunasikaha, atra anunasikah purvasya tuva ityane anunasike punskokilaha iti. Anunasikant paronuswaraha ityane anuswaragame krate punskokilaha iti rupadvayam. Khyanyadeshe na punkhyanam ityachate. Chakshinaha khyai iti sutramasti. Chakshing iti dhatu. Chakshing viptayam vati. Achakshate nama vadati ityarthaha. Achashte. Achakshate. Achakshate iti rupam. Tatra chakshinaha khyai iti adeshaha vidhiyate ardha dhatu keshu. So whenever it is followed by an ardha dhatu ka pratyaya, chakshu is replaced by khya. Khyanyadeshe na khyanyadeshe parataha pumakhayam pare ityanena rutvam na bhavati. Ateva pumkhyanam iti sthite pumkhyanam ityeva rupam iti uchyate. Khyanyadeshe iti adeshohi upadeshe khyadihi asiddha prakarane natvanantaram khyayaha shasya yatvam vikalpate. So this khyanyadesha is a separate, very, you know, extensive point of argument in the Mahabhashya. Chakshinaha khyai, the sutra says khyai, okay? But there are many cases where a khyai would pose problems. So what the Bhashyakara does, adeshohi upadeshe khyadihi. So he says the adesha actually originally in the upadesha is khyadi, that is khakara nantaram shakaraha. Talavya shakaraha shruyate. Asiddha prakarane natvanantaram kshayaha shasya yatvam vikalpyate. So the bhashya says kshayaha shasya yova iti bhashya asti. Tata shakarasya sthane yakara desha vidhiyate. Vihite khyai iti bhavati. Ataha ಪ್ರಯೋಗೆ ಯಕಾರ ಶ್ರೂಯತೆ, ಇನ್ ಪ್ರಯೋಗ ವಿಹಿಯದ ಯಕಾರ, ಕಿಂತು ಪ್ರಕ್ರಿಯಾ ದೃಷ್ಟಿಯ ಅಸಿದ್ಧ ಪ್ರಕರಣೆ ಅಸ್ತಿ ಇದಂ. ಅತಃ ಬಹೂನಾಂ ಸೂತ್ರಾಣಾಂ ದೃಷ್ಟಿಯ ಇದಂ ಯತ್ವಂ ಅಸಿದ್ಧಂ. ಸೊ ಮೆನಿ ಸೂತ್ರಸ್ ಟ್ರೀಟ್ ದ ಆದೇಶ ಆಸ್ ಕ್ಷಾಯ್ ಅಂಡ್ ನಾಟ್ ಖ್ಯಾಯ್. ಓಕೆ, ಸೊ ದ ಪ್ರಯೋಜನಸ್ ಆರ್ ಟೋಲ್ಡ್ ಜಸ್ಟ್ ನೌ. ತೇನ ಸುಪ್ರಖ್ಯೇನ ನಿವೃತ್ತಂ ಸೌಪ್ರಖ್ಯಂ ತತ್ರ ಭವಃ ಸೌಪ್ರಖ್ಯೀಯಃ. ಸುಪ್ರಖ್ಯ ಇತ್ಯಸ್ತಿ ತತ್ರ ಪ್ರಖ್ಯಾ ಇತಿ ಖ್ಯಾಯಾದೇಶಃ, ತತ್ರ ತದ್ಧಿತ ಪ್ರತ್ಯಯಃ ಅಸ್ತಿ. ಯತ್ವಸ್ಯ ಅಸಿದ್ಧತ್ವಾತ್ ಧನ್ವಯೋಪದಾತ್ ಇತಿ ಉಯಿ ನ ಇತಿ ಪ್ರಯೋಜನಾನಿ ಇತ್ಯಾದಿ ಪ್ರಯೋಜನಾನಿ ಆಕರೆ ಸ್ಥಿತಾನಿ. ಸೊ ಹಿ ಶೋಸ್ ವಾಟ್ ಇಸ್ ದ ಯೂಸ್ ಆಫ್ ಯು ನೋ ಇಂಟರ್ಪ್ರಿಟಿಂಗ್ ಇಟ್ ದಿಸ್ ವೇ, ಬಿಕಾಸ್ ಎನಿವೇ ಇನ್ ದ ಪ್ರಯೋಗ ವಿ ಆರ್ ಹಿಯರಿಂಗ್ ಯಕಾರ. ಓಕೆ, ಪ್ರಯೋಗೇ ಸರ್ವತ್ರ ಯಕಾರ ಏವ ಶ್ರೂಯತೆ. ತರ್ಹಿ ಕಿಂ ಪ್ರಯೋಜನ ಶಕಾರ ಸಹಿತಸ್ಯ ಉಪದೇಶಸ್ಯ ಇತಿ ಚೇತ್ ಸೌಪ್ರಖ್ಯೀಯ ಇತಿ ದೃಶ್ಯತೆ. ಸುಪ್ರಖ್ಯ ಇತಿ ಕಶ್ಚನ ತೇನ ನಿರ್ವೃತ್ತಂ ಕೃತಂ ಸೌಪ್ರಖ್ಯಂ ಅಸ್ತಿ ಸೌಪ್ರಖ್ಯ ಭವಃ ಸೌಪ್ರಖ್ಯೀಯ ಇತಿ. ತತ್ರ ಸೌಪ್ರಖ್ಯ ಶಬ್ದಾತ್ ತತ್ರ ಭವಃ ಇತ್ಯರ್ಥೆ ಕಃ ಪ್ರತ್ಯಯಃ ಸ್ಯಾತ್ ಇತಿ ಪ್ರಶ್ನಃ. ಸೊ ದಿಸ್ ಇಸ್ ಇನ್ ದ ತದ್ಧಿತ ವಿಚ್ ಪ್ರತ್ಯಯ ಡು ವಿ ಆಡ್. ಧನ್ವಯೋಪದಾತ್ ಉಯಿ ಇತಿ ಸೂತ್ರಮಸ್ತಿ. ಧನ್ವ ಯೋಪಧಾತ್ ಯದಿ ಯಕಾರಃ ಉಪಧಾಯಾಂ ಅಸ್ತಿ ತರ್ಹಿ ಉಯಿ ಇತಿ ಪ್ರತ್ಯಯಃ. ಓಕೆ, ಐ ಡೋಂಟ್ ಐ ಥಿಂಕ್ ದ ಸೂತ್ರ ನಂಬರ್ ಶುಡ್ ಬಿ ರಾಂಗ್ ಹಿಯರ್ ಬಿಕಾಸ್ ದಿಸ್ ಇಸ್ ನಾಟ್ ಇನ್ ದ ಧನ್ವಯೋಪಧಾತ್ ಇಸ್ ಇನ್ ದ ತದ್ಧಿತ ಪ್ರಕರಣ. ಸೊ ಇಟ್ ಶುಡ್ ಬಿ ಪ್ರಾಬಬ್ಲಿ 5-2 something. ಓಕೆ, ನಾಟ್ 8-2. ಧನ್ವಯೋಪಧಾತ್ ಯದಿ ಯಕಾರಃ ಉಪಧಾಯಾಂ ಅಸ್ತಿ ತರ್ಹಿ ಉಯಿ ಇತಿ ಪ್ರತ್ಯಯಃ ವಿಧೀಯತೆ. ಇದಾನಿಂ ಯತ್ವಸ್ಯ ಅಸಿದ್ಧತ್ವಾತ್ ಕ್ಷಾಯಾದೇಶಃ ಇತಿ ಯದಿ ಸ್ವೀಕ್ರಿಯತೆ ತರ್ಹಿ ತತ್ರ ಯಕಾರಃ ಯತ್ವಂ ಅಸಿದ್ಧಂ ಅಸಿದ್ಧತ್ವಾತ್ ಶಕಾರಃ ಅಸ್ತಿ ಉಪಧಾಯಾಂ ತಥಾ ಸತಿ ಉಯಿ ನ ಭವತಿ. ಸೊ ವಿ ಡು ನಾಟ್ ಹ್ಯಾವ್ ಉಯಿ ಹಿಯರ್. ಉಯಿ ಕ್ಯಾನ್ ಬಿ ಪ್ರಿವೆಂಟೆಡ್ ಬೈ ಅಸ್ಯೂಮಿಂಗ್ ದ ಆದೇಶ ಇಸ್ ಕ್ಷಾದಿ ಅಂಡ್ ಯತ್ವ ಇಸ್ ಅಸಿದ್ಧ. ಅತಃ ವೃದ್ಧಾಚ್ಛಃ ಇತ್ಯನೇನ ಛಪ್ರತ್ಯಯಃ ಛಪ್ರತ್ಯಯಸ್ಯ ಈ ಆದೇಶೆ ಸೌಪ್ರಖ್ಯೀಯಃ ಇತಿ ರೂಪಂ. So this is one of the prayojanas of making it kshadi in upadesha. So there are many more which we'll see right now. Evam cha yastvasya asiddhataya amparatva bhavat atrapi pumaha khayi ampare ityasti khyai iti yadi yakaraha tarhi saha api am tasmin pare pumaha khayi ಇತ್ಯನೇ ಪುಮಃಖಯ್ಯಂಬರೆ ಇತ್ಯನೇನ ಋತ್ವಸ್ಯ ಪ್ರಾಪ್ತಿ. ಯದಿ ಆದೇಶ ಕ್ಷಾದಿಹಿ ಇತಿ ಸ್ವೀಕ್ರಿಯತೆ ತರ್ಹಿ ಖಕಾರಾತ್ ಪರತ್ವೇನ ಶಕಾರಃ ಅಸ್ತಿ ಶಕಾರಃ ಅಂವರ್ಣಃ ನ ತಥಾ ಸತಿ ಪುಮಃಖಯ್ಯಂಬರೆ ಇತ್ಯಸ್ಯ ಪ್ರಾಪ್ತಿರೇವ ನಾಸ್ತಿ. ಸೊ ದ ವಾರ್ತಿಕ ಹಿಯರ್ ಕ್ಷಾಯಾದೇಶೇನ ಇಸ್ ನಾಟ್ ಅನ್ ಇಂಡಿಪೆಂಡೆಂಟ್ ವಾರ್ತಿಕ, ದಟ್ ಇಸ್ ಇಟ್ ಇಸ್ ನಾಟ್ ರಿಕ್ವೈರ್ಡ್ ಆಸ್ ಅನ್ ಇಂಡಿಪೆಂಡೆಂಟ್ ವಾರ್ತಿಕ. ಸೊ ಹಿ ಸೇಸ್ ಕ್ಷಾಯಾದೇಶೇ ನ ಭವತಿ. ಸೊ ಕಿಮರ್ಥಂ ನ ಭವತಿ, ತತ್ರ ಯಕಾರಃ ನಾಸ್ತಿ ಶಕಾರಃ ಏವ ಅಸ್ತಿ. ಯಕಾರಸ್ಯ ಅಸಿದ್ಧತ್ವಾತ್ ಶಕಾರ ಏವ ಅಸ್ತಿ ತಸ್ಮಾತ್ ಅಂಪರತ್ವಾಭಾವಾತ್ ಪುಮಃಖಯ್ಯಂಪರ ಇತ್ಯನೇನ ಋತ್ವಂ ನ ಭವತಿ ಇತ್ಯರ್ಥಃ. ಸೊ ಯಾ, ಧನ್ವಯೋಪಧಾನ್ವಿ ಇಸ್ ಅಪರೆಂಟ್ಲಿ 4-121. ಸೊ ದರ್ ಇಸ್ ಸಮ್ ಮಿಸ್ಟೇಕ್ ಇನ್ ದ ಫೈಲ್, ಸೊ ಐ ವಿಲ್ ಕರೆಕ್ಟ್ ಇಟ್. ಸೊ ಋತ್ವಂ ನ ಇತಿ ಚೇತ್ ಪುಂಖ್ಯಾನಂ ಇತ್ಯೇವ ರೂಪಂ. ಪುಂಖ್ಯಾನಂ ಇತಿ ಚಕ್ಷಿಣಃ ಲ್ಯುಟ್ ಖ್ಯಾನ್ಯಾದೇಶ. ಸೊ ಯು ಹ್ಯಾವ್ ದ ಚಕ್ಷ ಧಾತು ತಸ್ಯ ಲ್ಯುಟ್ ಪ್ರತ್ಯಯ, ಲ್ಯುಟ್ ಪ್ರತ್ಯಯೇ ಯು ಇತಿ ಶಿಷ್ಯತೆ ಯುವೋರನಾಕೌ ಇತ್ಯನೇನ ಅನ ಇತಿ ಭವತಿ. ತಥಾ ಚ ಖ್ಯಾಯಾದೇಶೆ ಖ್ಯಾ ಅನ ಖ್ಯಾನ ಪುಂಖ್ಯಾನ ಪುಂಖ್ಯಾನ ಇತಿ ರೂಪಂ. ನನು ಆದೇಶಃ ಇಹ ದುರ್ಲಭಃ ವರ್ಜನೆ ಪ್ರತಿಷೇಧಃ ಅಸ್ ಅನಯೋಶ್ಚ ಇತಿ ವಾರ್ತಿಕಾದ್ ಇತಿ ಚೇತ್ ಅತ್ರ ಖ್ಯಾಯಾದೇಶ ಭವತಿ ವಾ ಇತಿ ಪ್ರಶ್ನಃ. ಯತೋಹಿ ವಾರ್ತಿಕ ದ್ವಯಮಸ್ತಿ ಖ್ಯಾಯಾದೇಶ ವಿಷಯೆ ವರ್ಜನೆ ಪ್ರತಿಷೇಧಃ ಅಸ್ ಅನಯೋಶ್ಚ. ಸೊ ವರ್ಜನಾರ್ಥೇ ಖ್ಯಾಯಾದೇಶಃ ನ ಭವತಿ, ಅಸ್ ಪ್ರತ್ಯಯೇ ತಥಾ ಅನ್ ಪ್ರತ್ಯಯೇ ಚ ನ ಭವತಿ ಇತಿ ವಾರ್ತಿಕಮಸ್ತಿ. ತಥಾ ಸತಿ ಅತ್ರ ಅನ ಪುಂಖ್ಯಾನಂ ಇತ್ಯತ್ರ ಲ್ಯುಟ್ ಇತಿ ಅನ ಪ್ರತ್ಯಯಃ, ತಸ್ಮಿನ್ ಪರೇ ಕಥಂ ಖ್ಯಾಯಾದೇಶಃ ಇತಿ ಪ್ರಶ್ನಃ. ತತ್ರೋಚ್ಯತೆ ಸತ್ಯಂ ಬಹುಲಂ ತಣಿ అన్నవధక గాత్ర విచక్షణ అజిరాద్యర్థం ఇది వార్తికే బహుల గ్రహణాత్ సమాధేయం. సో హి సేస్ దట్ ఇస్ ట్రూ, వార్తికమస్తి అసనయోశ్చ ప్రతిషేధ ఉచ్యతే, తథాపి అన్యద్వార్తికమస్తి బహుళం తణి అన్నవధక గాత్ర విచక్షణ అజిరాద్యర్థం ఇది. సో తణి ఇత్యత్ర సంజ్ఞాఛందసోహు ఇత్యర్థః క్రియతే. సో ఐ డోంట్ నో హౌ actually tani is supposed to mean samyachandasohu. I wanted to refer to the mahabhashya but I could not. So anyway, the artha given by Kayyata is samyachandasohu sarve adeshaha dhatvadeshaha. There are many dhatvadeshas which are given in the second chapter. Okay, for example, ado jagdhihi ad ityasya lyaptikiti lyapratyaye kiti ti cha తకారాదౌ ప్రత్యయే చ జగ్ధి ఇతి ఆదేశః క్రియతే. హనో వధః హన ఇత్యస్య వధాదేశః క్రియతే. ఇన్ ఇతి ధాతోః గా ఇతి ఆదేశః. చక్షిణః ఖ్యాయ్ అజేః వి. సో ఆల్ దీస్ ఆర్ ధాత్వాదేశస్ విచ్ ఆర్ గివన్ ఇన్ వన్ సబ్ ప్రకరణ ఆఫ్ దష్టాధ్యాయి. తత్ర సర్వత్ర ఏతే ఆదేశాః వికల్ప్యంతే సంజ్ఞాఛందసోః ఇతి కయ్యటః అత్ర అస్య వార్తికస్య వ్యాఖ్యానే వదతి. కిమర్థం అన్న ఇత్యస్తి అద్ ధాతోః ప్రత్యయః సః. తత్ర జగ్ధ్యాదేశః న కృతః. వధక ఇత్యస్తి హనః వధాదేశః కృతః ఈవన్ వెన్ ద నిమిత్త ఇస్ నాట్ దేర్. సో నిమిత్తాభావేపి వధాదేశః శ్రూయతే. గాత్రం ఇత్యత్రాపి ఇణః గా ఇతి ఆదేశః దృశ్యతే నిమిత్తాభావేపి. ఈవన్ దో ద సూత్ర స్పెసిఫైస్ స్పెసిఫిక్ నిమిత్తాస్ ఇణో గా లుంగి ఇత్యుచ్యతే. తదభావేపి గా ఆదేశః శ్రూయతే. విచక్షణః ఇత్యత్ర చక్షు ధాతోః ఖ్యాయాదేశః న దృశ్యతే. సో ఇట్ ఇస్ ఆల్ ఇట్స్ లైక్ దేర్ ఆర్ సమ్ కేసెస్ వేర్ ద ఆదేశ షుడ్ హ్యావ్ బీన్ దేర్ ఇట్స్ నాట్ ఫౌండ్ అండ్ ఇన్ సమ్ కేసెస్ వేర్ దెర్ ఇస్ నో నిమిత్త ఫార్ ద ఆదేశ బట్ యెట్ ద ఆదేశ ఇస్ డన్. సో ఫర్ ఆల్ దిస్ హి సేస్ బహుళం బహుళ గ్రహణం కర్తవ్యం. క్వచిత్ ప్రవృత్తిః క్వచిత్ అప్రవృత్తిః ఇది బహుళ గ్రహణస్య ప్రయోజనం. అతః సంజ్ఞాఛందసోః సర్వే ఆదేశాః బహుళం భవంతి ఇతి వార్తికం. తేన అత్రాపి ఖ్యా ఆదేశః యద్యపి అసనయోశ్చ ఇత్యనేన నిషిధ్యతే తథాపి బహుళ గ్రహణాత్ ఖ్యాయాదేశః కృతః పుంఖ్యానం ఇతి. బికాస్ ఇన్ అదర్ కేసెస్ వేర్ సే విచక్షణ వేర్ యు హావ్ ద సేమ్ ల్యుట్ ఓకే సేమ్ ల్యుట్ ఆదేశ ఇస్ నాట్ సీన్. వి ఉపసర్గపూర్వకస్య చక్షు ధాతోః ల్యుట్ ప్రత్యయే పరే ఆదేశః నాస్తి. విచక్షణః ఇతి రూపం చక్షు ఇత్యేవ శ్రూయతే. కింతు ఖ్యానం ఇత్యపి అస్తి. కథం ఇతి ప్రశ్నః. తత్ర బహుళ గ్రహణాత్ సమాధేయం. బహుళం తణి అన్నవధక గాత్ర విచక్షణాదిరాద్యర్థం ఇది వార్తికే బహుళ గ్రహణాత్ సమాధేయం. క్లియర్? ఎనీ క్వశ్చన్? తథా చ ఖ్యాదిత్వ ప్రయోజన గణనమార్తికం. సో హి సేస్ తత్ర కిముచ్యతే ఖ్యా ఇత్యత్ర ఉపదేశే ఖ్యాదిహి ఇత్యత్వా తస్య ప్రయోజనాని కాని ఖ్యాదిత్వస్య ప్రయోజనాని కాని ఇతి ఏకస్మిన్ మార్తికే ఉక్తాని. రూవిధిహి పుంఖ్యానం నత్వం పర్యాఖ్యానం నిష్ఠానత్వం ఆఖ్యాతం ఇతి త్రీణి ప్రయోజనాన్ని ఉచ్యంతే. కిం రూవిధిహి పుంఖ్యానం ఇత్యత్ర ఖ్యాదిత్వాత్ రుత్వం న భవతి. అత్ర యకారస్య అసిద్ధత్వాత్ అంపరకత్వాభావాత్ ఋత్వం న భవతి ఇతి ఏకం ప్రయోజనం ఖ్యాదిత్వస్య. నత్వం పర్యాఖ్యానం పరి ఆఖ్యానం ఇత్యస్తి. అత్ర రేఫా అస్తి. రేఫాత్ పరస్య నకారస్య అట్కుప్వాంగ్నుం వ్యవాయే నత్వం. సో పరి ఆఖ్యానం యది యకారః అస్తి, యకారః అట్, ఖకారస ఖకారః కు, అన్యే సర్వేపి వర్ణాః తేషు అంతర్భవంతి ఇత్యతః నత్వం ప్రాప్నోతి. కింతు యది ఖ్యాదిత్వం అంగీక్రియతే తర్హి షకారః అస్తి. షకారః అట్కు పు ఆంగ్ ఇత్యేతేషు న అంతర్భవతి, అతః నత్వం వాద్యతే. సో నత్వం ఆరణమపి ప్రయోజనం పర్యాఖ్యానం ఇత్యత్ర ఖ్యాదిత్వస్య ప్రయోజనం. ఏవమేవ నిష్ఠానత్వం ఆఖ్యాతం. తత్రాపి సంయోగాదే రాతో ధాతో ఎణ్వతః ఇత్యనేన ఎణ్వతః ధాతోః சயோகாதேக எண்வத்தக. இஃப் இட் பிகின்ஸ் வித் சயோகா அண்ட் ஹாஸ் எ எண் லெட்டர் தென் த தகாரா இஸ் கன்வெர்ட்டட் டு அ நகாரா. கிந்து அத்ர ஷகாரஹ யதி அஸ்தி க்ஷாதித்வம் அங்கீக்ரியதே தர்ஹி ஷகாரஹ யதி அஸ்தி தர்ஹி நத்வஸ்ய ப்ராப்திஹி நாஸ்தி. ஸோ ஏதான்யேவ க்ஷாதித்வ ப்ரயோஜனானி ஷகாரேண வ்யவதானாத் க்ருத்யதஹ இதி நத்வம் ந பர்யாக்யானம் இத்யத்ர ததா ஆக்யாதம் இத்யத்ர சயோகாதே ராதோ தாதோ எண்வதஹ இதி நத்வம் ந யத்வஸ்ய அசித்யா எண்வத்தா விரஹாத் எணேவ நாஸ்தி அதஹ அஸ்மாத் சூத்ராத் நத்வம் ந பவதி. ஏவம்ச நத்யாக்யா இதி சூத்ரே க்யா கிரஹணம் ந கர்த்தவ்யம் இதி பாவஹ. நௌ திஸ் ஆக்யாதம் நிஷ்டானத்வம், ஐ மீன் நாட் ஹேவிங் நிஷ்டானத்வ இஸ் கிவன் அஸ் அ பிரயோஜன ஃபார் க்ஷாதித்வ. கிந்து தத்ர ஏகம் சூத்ரமேவ அஸ்தி ந த்யாக்யா ப்ர மூர்ச்சிமதாம் இதி சூத்ரம் அஸ்தி நிஷ்டானத்வஸ்ய நிஷேதார்த்தம் சூத்ரம். தத்ர க்யா கிரஹணம் அஸ்தி, யத்யபி க்ஷாதித்வம் நாஸ்தி ததாபி அத்ர க்யா கிரஹணம் அஸ்தி இத்யதஹ நிஷ்டானத்வம் நிஷித்யதே. இதானீம் யதி க்ஷாதித்வேனைவ ஏதத் பிரயோஜனம் சித்யதி. So, it being Kshadi has many prayojanas, right? So, as in preventing Ruvidhi in Punkhyanam, preventing Natva in Paryakhyanam. So, there are many such prayojanas. Preventing Vi in Sauprakhya. So, there are many prayojanas for Kshadi. So, by the same being it Kshadi, Nishtha Natva can also be prevented. Tathasati, Nadhyakhya iti sutre, Khyagrahanam na kartavyam. Now, it is not required to include Khya in this sutra. Okay? So, we can take that out and just have a sutra as Na Dhyā Pru Mūrchi Madam Lāghavam Siddhyati Kshaditvā Deva Nishthānatvam Nishidhyate. Evanja Na Dhyā Khya iti sutre Khya Grahanam Na Kartavyam iti Bhāvaha. Nacha Khya Prakathane Ityetadartham Tat iti Vāchyam Tasya Sarvadhātuka Māstra Vishayatvāt. Now this khya, there are two khyas which we hear in dhatus. Ekam tu chakshingaha khya iti adeshaha kriyate ardha dhatuke. Khya prakathane ityeva dhatu rapi asti. There is also an independent dhatu called khya in the same meaning. Prakathane vachane ityeva arthe asti. So there is a vibhaga there. The original dhatu is used only in sarvadhatukas. Okay? Whereas the in Ardha Dhatukas, it is always Chakshu Dhatu which has the Khyai Adesha. So that has been clearly told in the Bhashya. Nacha Khya Prakathane Ityeta Dartham Tat Iti Vachyam. Nadhya Khya Iti Sutre Khya Grahanam. Natu Khyai Adesha Artham Kintu Khya Iti Dhatvartham. So this could be to prevent the Natva for the Dhatu. In case of the Adesha, Adesha is treated as Kshadi, therefore Natva can be prevented. But what about the original Khya Dhatu? Tadartham Atra Khya Grahanam Iti Vaktum Nashakyate Kimartham Tasya Sarvadhatuka Matra Vishayatvat. That Dhatu Khya Prakathane is used only in Sarvadhatukas. Ardha Dhatuka Pratyaya Tasya Prayogaha Nasti Anabhidhanat Ityeva Siddhantaha. Okay. So we do find it in some cases. There are some dhatus which are used only in sarvadhatukas. For example, if you find asadhatu, use of asadhatu is found only in sarvadhatukas. Nadadhatu keshatu aster bhuhu ityanena bhu adeshaha kriyatu. So asadhatu actually does not have any forms in ardhadhatuka. We will see what is sarvadhatuka and ardhadhatuka in the tinganta prakriya. Okay. Ting shit sarvadhatukam. Ashit Pratyaya or Ting Pratyaya is called Sarvadhatuka. And there are four Sarvadhatuka Lakaras. Lat, Lot, Lung and Vithili. All the rest are called Ardhadhatuka Lakaras. So Asadhatu has forms only in four Lakaras. Asti, Astu, Asit and Syat. If you wrote to Lit, it is Babhuva. Lut, Bhavita. Lut, Lut, Bhavishyati. You don't have forms of Asadhatu. Because Asadhatu is a Sarvadhatuka Dhatu. It is used only in Sarvadhatukas. In Ardhadhatukas, it is replaced by Bhu. Meaning it does not have forms. So the forms we use of bhu, which is of the same meaning. So we use forms of bhu. Similarly, this kya prakathane dhatu does not have forms in ardhadhatuka lakaras. It has forms only in sarvadhatukas. Therefore, there is no possibility of having the nishtha, that is kta pratyaya, on the kya dhatu, because kta pratyaya is an ardhadhatuka. So the kya dhatu will not have nishtha pratyaya at all. So there is no possibility of it, there is no need for to prevent nishthanatva for the kya dhatu. For the adesha, that is chakshingaha kshaya adeshe, kshaditvata nishthanatvam nivariyate. Ataha nadhyakhya iti sutre khya grahanam napekshyate. Nacha khya prakathane ityetadartham tat iti vachyam, tasya sarvadhatuka matra vishayatvat. Atayeva sasthanatvam namahakhyatre iti uttara partikam pramanam. Katham nyayate khya dhatoho adhadhatake prayogaha nasti iti. Tatra sasthanatvam namahakhyatre iti uttara vartikam. Nama kshaditvasya kim prayojanam iti prachan vartika karaha namahakhyatre ityapi udaharanam dadati. So in the first vartika he gave three prayojanas like ruvidhihi punkhyanam, natva nivaranam paryakhyanam, tatha nishthanatvam akhyatam. So these three are prayojanas for making it kshadi. So next he also gives jihvamuliya nishedha as a prayojana. Namaha khyatre. Sasthanam iti jihvamuliyasya pracham samya. So what we know as jihvamuliya, it is visarga followed by kakara or khakara, was referred to as sasthana by ancient vayakaranas. Now, in namaha khyatre, right, you have namaha, visarga followed by khakara. So actually there should be jihvamuliya. Kintu sharpare visarjaniyaha iti sutramasti. That is what we do in say ksha, whenever followed by ksha. Vasaha kshaumam. Yadi kshakara hasti, kakarat paratra mudhanya shakaraha. So sharpare khari visarjaniyase visarga eva syat. There is no jishvamuliya. Here the visarga itself. Kshamaha kshamas samiranaha. So we don't say kshamah kshamaha because there is no jishvamuliya. If after the khar, if the, after the kakara or khatara there is shar varna, shar pare, shar shrasa, then visarga will be replaced by visarga itself. There is no jishvamuliya or any other karya. Now in namaha khyatre, he says there is no jishvamuliya. Visarga is replaced by visarga. Why? Kshadi. The adesha, as we saw, is kshadi. There is khakara followed by shakara. Shakara is shar. Ataha sharpare visarjaniyaha ityanena visarjaniya eva bhavati. Namah khyatre iti na bhavati. Namah khyatre ityeva rupam iti agrevartikena uchyate. Sasthanatvam namah khyatre. Jishvamuliya nishedha. Jishvamuliya abhavaha api prayojanam khyaditvasya. Yatha namah khyatre ityatra jishvamuliyaha na bhavati iti agrevartike uchyate. Yadi svatantropi dhatuhu ardhadhatuke ishyeta. If the khya prakathane dhatu, the independent dhatu, were to be used in ardhadhatukas, tada jishvamuliyasi durvarataya. Then, even if we prevent jishvamuliya in case of adesha, chakshingaha khyayadeshe jishvamuliye nivarite api, svatantrasya dhatuhu khyata iti prayogaha tatra jishvamuliyaha syadeva. There is no way to prevent jihvamuliya in namah khyatre. Namah khyatre. Okay. Yadi svatantropi dhatuhu ardhadhatuke ishyeta. If independent dhatu were also to be used in ardhadhatuka, then jihvamuliyasya durvarataya. You cannot prevent jihvamuliya for the dhatu by any way. Ataha idam vartikam asangatam syat. So this vartika will not make sense. So by the vartika itself we know that the independent dhatu khya prakathane is used only in sarvadhatukas. In ardhadhatuka, we have the chakshadhatu being replaced by khya. Yattu haradatta madhavadibhihi uktam khya dhaturapi kshadihi yattva vidhihi api ubhayasadharanaha iti tachintyam. Now, some of these haradatta madhava etc., they think that the dhatu also is kshadi. It is not just Chakshinaha Khyai. The Khyai Adesha which is Kshadi. The Dhatu itself is Kshadi. Yatva Vidhihi Api Ubhaya Sadharanaha. Kshayo Shasya Yova Iti Yattvam Yadvidhiyate. Tad Api Ubhaya Sadharanaha. So both the Dhatu and the Adesha begin with Ksha. And in both cases, Shakara is replaced by Yakara. That is what they say. Okay. Tatachintyam. So that does not seem to be right. Why? Bhashye Chakshinaha eva upakramat. In the Bhashya where he discusses the Kshaya Desha, he mentions only Chakshing. He does not mention the Khyadhatu. Bhashye Chakshinaha eva upakramat. Sarvadhatu kevi Kshadi prayoga pateshcha. Okay, that is one thing. And the second thing, in the Sarvadhatukas also, if you say that the Dhatu is also Kshadi and Yakara is given optionally, then even in Sarvadhatukas, you would have to hear the Kshadi. Okay? The Adesha for the Yakara Adesha for Shakara is optional. So you would have to hear the Shakara even in Sarvadhatukas, which is not required. Nacha Ishtapattihi, it is not heard. Sarvadhatukeshu Shakara Prayogaha Kutrapi na Shruyate. Ardhadhatukeshweva Yakara Prayogopi Shruyate, Shakara Prayogopi Shruyate. Madhavena Ardhadhatukeshu Eva Ayam Kshadihi Iti Uktatva. Ardhadhatukeshweva Shakarasya Shravanam Iti Madhavena Swayam Uktamasti. Sarvadhatuke Anabhidhanasya Eva Sharani Kartavya Patya. So, since Shakara is not found anywhere in Sarvadhatukas, you would have to say Anabhidhanam. Yadi Svatantrahapi Khyadhatuhu Kshadihi Tasya Yakara Deshaha Iti Uchyate Tarhi Sarvadhatukeshu Kimattham Shakaraha Na Shruyate Iti Prashnahu Deti Tathasati Anabhidhana Na Shruyate. Anabhidhana is where there is no Prayoga. Okay? Abhidhanam Nasti Ityeva Vaktavyam. Anabhidhanasyaiva sharani kartavyatva patya gaurava grastatvacha. And it is also, lot of gaurava in saying that the khyadhatu is also kshadi, it has yakaradesha. There is no prayojana for it being shakaradi. And also to prevent to explain the shakara not being heard in sarvadhatukas, you would have to resort to anabhidhana. So all these cases are Gaurava, lead to Gaurava. So, the final Siddhanta is Khya Prakathane iti Dhatuhu Khyadi Deva Tatra Yakara Eva Asti Tasya Dhatuhu Sarvadhatu Keshweva Prayogaha Chakshinaha Yaha Khya iti Adesha Vidhiyate Saha Khyadihi Tasya Ardhadhatu Keshweva Prayogaha Shakarasya Asiddha Kande Yatvam Vidhiyate Tasya Yatvasya Asiddhatvat Kanichana Karyani Nivariyante Yatha Rutvam Nivaryate, Natvam Nivaryate, Nishthanatvam Nivaryate, Jishwamuliyaha Nivaryate. So to prevent all these karyas, the Khyai Adesha is made Kshadi. Okay. Any questions? Clear with it so far? So let that be there. So we have Punkhyanam Tatra Rutvam Na Bhavati Kuto Na Bhavati Khyanam Iti Chakshinaha Khyaya Deshaha Sacha Khyadihi Tatra Shatalavya Shakaraha Asti Shakarasya Yatva Deshaha Tasya Asiddhatvat Shakaraha Asti Shakaraha Na Am Ataha Pumaha Khayi Ampare Ampare Khayi Eva Rutvam Bhavati Atra Amparakatvam Nasti Ityataha Rutvam nasti ityachyate ataha punkhyanam ityatra iti rupam. Idanim bahavaha pumamsaha asmin kule bahupum khyati ityatra rutvam syad. Now he says bahavaha pumamsaha asmin kule ityarthe bahupum iti rupam bhavati. Okay, when you do a bahuvrihi samasa, bahupums ityasti tatra sanyogantasya lopaha iti sakarasya lope bahupum iti asti bahupum khyati. Now khyati khyatah khyanti, this is a latlakara sarvadhatuke khya prakathane ityeva dhatuhu. What we have decided now, the khyai adesha is kshadi, whereas the original dhatu kya is not kshadi. It has originally yakara. Therefore, if we are using the dhatu, the latlakara of the dhatu, bahupum khyati vadati ityarthe, bahupum kulam khyati iti yadi prayogaha, atra rutvam bhavativa iti prashnaha. Because here, khya ityasti khakaraha amparakha, yakara is am. This is not kshadi, therefore you cannot prevent rutva saying yatva is asiddha. So do we have rutva here? Bahavaha pumamsaha asmin kule, bahupum khyati ityatra, rutvam syat, which is bhavati ityeva uttaram. Okay. So, urah prabhratishu pumshabdasya ekavachanantasya iva paathat, na iha kap. Satakashtana prashnaha bahupum iti bhavativa. Yatohi urah prabhratibhyah kap iti samasantaha asti bahuvrihau. Ina bahuvrihi samasa, if you have the pums shabda, then there is ka as samasanta added compulsorily. Okay. For example, viraha puman yasya saha, vira pums kaha. Iti rupam bhavati. Nityam ka iti pratyaha bhavati pums shabdasya bahuvrihi samase. Ka iti samasanta pratyaha. Urah prabhratibhyaha kap ityanena. Tatha sati bahupum iti katham, bahupums kaha iti bhavet kila iti prashnaha, urah prabhradishu pumshabdasya ekavachanantasya eva paathat, puman ityeva pathyate urah prabhradi gane. Adha yatra ekavachanantaha pumshabdaha tatraiva kap, itha viraha puman yasya tat iti krate vira pumskam iti bhavati. Athava ekaha puman yasya tat ityarthe eka pumskam. Yatra eka vachanantaha pums shabdaha tatraiva kap samasantaha. Atra bahavaha pumamsaha ityasti ityataha kap nityam na bhavati. So the urah prabhratibhyah kap will not operate here. So we can have a pratipadika bahupum. Bahupum khyati. Sarvadhatukecha khyatehe prayogaha nirbadhayeva. And in the sarvadhatuka, latlakara, you can have the original dhatu, khya prakathane. So since it is not kshadi, there should be rutva here. Bahavaha pumamsaha asmin kule, bahupum khyati ityatra rutvam syat. It is said, ishtapattihi. Yes, there is rutva here. In this case, you will have bahupumskhyati or bahupumskhyati, like pumskokilaha or pumskokilaha, you will have two forms. Samhitayaha avivakshayam tu rutvam na. So, if there is samhita, there is rutva followed by the other karyas. If there is no samhita, then rutvam nasti bahupumskhyati ityapi sadhu. Yattu pracha khyadatau neti kechit iti uktam. Now, in the prakriya kaumudi, he says, khya dhatu na umakhayam pare will not apply when followed by khya dhatu iti kechit. So, kechit khya dhatu na iti vadanti iti uktam. Tatra yadi khyayadeshe ityarthaha tarhi kechit iti anuchitam. Now, the dikshitar uses the vartika khyayadeshe na. So, instead of that, the older grantha says, khyadhatau neti kechit. So some people consider rutva to not be there when followed by khyadhatu. Tatra yadi khyayadeshe ityarthaha tarhi kechit iti anuchitam. Now khyadhatau na iti kechit iti aduktam tat na sadhu. Etohi khyadhatau parataha rutvam ishyate. So if it is khyadhatu, we want rutva. Ataha khyadhatau na iti na sadhu. Khyay adeshena ityarthe erisaha khyadhatavuna iti uktavan. If he intended to say khyayadeshena, tarhi kechit iti anuchitam. It is not kechit. Nobody wants rutva when followed by khyayadesha. Kechit ityevana. Sarvesham mate khyayadeshe pare rutvam na bhavati. Sarvesham mate khyadhatav pare rutvam bhavati. So if it is khyadhatu, we have rutva. If it is khyayadesha, we don't have rutva. So, khyadhatau neti kechit is wrong. Svatantre dhatau chetarhi sarvadhatuka vishayepi nishedhasyat nata ishtapatihi nirmulatvat. So this statement itself is wrong. Khyadhatau neti kesit is wrong. Because if he meant the dhatu itself, then in sarvadhatuka vishaya, nishedha is not desired. Okay. So khyadhatau na is wrong. If he meant khyayadeshe na bhavati iti yadi tasya vivaksha, tarhi kechit iti na vaktavyam. Sarvesham matepi khyayadeshe pare rutvam na bhavati. Ataha khyadhatau neti kesit iti anuchitam khyayadeshe na ityeva vaktavyam. Any questions? So please go home and read up the arguments once on everything that he makes with regard to pumkhyanam. First thing, does the chakshing dhatu have khyayadesha here or not is one question. Second thing, once we do khyayadesha, should we do rutva or not? We don't do rutva because the adesha is khyadi and yatva is asiddha. Now how do we know that adesha is khyadi? What are the uses of the adesha being khyadi is one thing. And the next thing, what about the khya prakathane, the independent dhatu? What happens when we use the independent dhatu? Where do we use the dhatu? We use it only in sarvadhatukas. And what happens when we use the dhatu, bahupum khyati, we do have rutva. Ataha, satantra dhatoho prayoge rutvam bhavati, adesha vishaye rutvam na bhavati, iti siddhantaha. Any questions? Dhyayam dhyayam param brahma smaram smaram gurur giraha siddhanta kaumudi vyakhyam kurumah praudhamano ramam. Dhanyavadaha.